ब्रह्मणस्तमम् येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पदानशृण्वन्नोदभिः सेदसादनम् श्रीमहागणाधिपतये नमः प्रणो देवे सरस्वते वाजेभिर्वाजिनेवदे धेनामवित्र्यवद श्रीमहासरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ शङ्कारूपेण मच्चित्तम् भङ्गे कृतमभोद्यया किङ्करेयस्य सामाया शङ्कराचार्यमाश्रये प्रह्लादवरदो देवो यो नृसिंहः परो हरिः नृसिंहोपासकम् नित्यम् तम् नृसिंहगुरुम् भजे श्रीसच्चिदानन्दशिवाभिनम्य नृसिंहभारत्यभिधान् यतेन्द्रान् विद्यानिधेन्मन्त्रनिधेन् सदात्मनिष्ठान् भजे मानवशम्भुरूपान् सदात्मध्याननिरतम् विषयेभ्यः परान्मुखम् नौमि शास्त्रेषु निष्णातम् चन्द्रशेखरभारतीम् विवेकिनम् महाप्रज्ञम् धैर्यौदार्यक्षमानिधिम् समाभिनवपूर्वन्तम् विद्यातीर्थगुरुम् भये अज्ञानाम् जाह्नवेतीर्थम् विद्यातीर्थम् विवेकिनाम् सर्वेषाम् सुखदम् तीर्थम् भारते तीर्थमाश्रये न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकन्निहितम् गुहायान् विभ्राजते दद्यतयो विशन्ति वेदान्तभिज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ते सर्वे दहरम् विपापम् परमेश्वभोजम् यत्पुण्डरेकम् पुरमध्यसग्रस्तम् तत्राविदह्रम् गगनम् विशागस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः अस्य प्रकृतिरेणस्य यः परः स महेश्वरः श्रीमत्परमहंसपरिव्राजकाचार्यवर्या पदवाक्यप्रमाणपालपालपालेण यमनियासनप्राणायामप्रत्याहारधारणाध्यानसमाध्यष्टाङ्गयोगानुष्ठाननिष्ठा तपश्चक्रवर्ते अनाद्यविच्छिन्न श्रीशङ्कराचार्यगुरुपरम्परा प्राप्ता षड्दर्शनस्थापनाचार्या व्याख्यानसिंहासनाधीश्वरा सकलनिगमागमसारहृदया साङ्ख्यत्रयप्रतिपादका वैदिकमार्गप्रवर्तका सर्वतन्त्रस्वतन्त्रा आदिराजधानी विद्यानगरमहाराजधानी कर्णाटकसिंहासनप्रतिष्ठापनाचार्या श्रीमद्राजाधिराजगुरो भूमण्डलाचार्या ऋष्यशृङ्गपुरवराधीश्वरा तुङ्गभद्रादीरवासी श्रीमद्विद्याशङ्करपादपद्माराधका श्रीमज्जगद्गुरु श्रीमदभिनवविद्यातीर्थमहास्वामि गुरुकरकमलसञ्जाता श्रीमज्जगद्गुरु श्रीमद्भारतीर्थमहास्वामिनाम् तत्करकमलसञ्जाता श्रीविदुषेकरभारतीस्वामिनाम् दिव्यश्रीचरणारविन्दयोः साष्टाङ्गप्रणामान् समर्पयामः।